अस्माकम् अवलोकनवर्गे भेदपृथक्त्वयोः परस्परवैलक्षण्यम् इति विषयः प्रवर्तमानः अस्ति. तर्हि अस्माभिः दृष्टमासीत् यद् भेदः एव पृथक्त्वम् इति एकः आक्षेपः आसीत्. आक्षेपस्य निवारणार्थं संयोगस्य आधारेण प्राचीननैयायिकाः आक्षेपस्य निवारणं कुर्वन्ति इति आसीत्. तर्हि संयोगः कुत्र सम्भवति इति चेत् यत्र पृथगाश्रयाश्रितत्वम् अस्ति तत्रैव संयोगः सम्भवति. पृथगाश्रय आश्रितयोः युतसिद्धयोः मूर्तद्रव्ययोः अथवा तयोः एव सम्भवति संयोगः इति दृष्टमासीत्. पृथगाश्रय आश्रितत्वम् इत्यनेन भिन्नाश्रयाश्रितत्वम् इति न सूचितम्. भिन्नाश्रयाश्रितयोः मध्ये संयोगः न कदापि भवति. यथा घटः कपाले अस्ति, कपालः कपालिकायां, तर्हि न्यायशास्त्रे सर्वे पदार्थाः परस्परभिन्नाः इति कृत्वा घटस्य आश्रयः कपालः भिन्नः, कपालस्य आश्रयः कपालिका अपि भिन्ना, तर्हि तत्र भिन्नाश्रयाश्रितत्वम् अस्ति किन्तु घटकपालयोः संयोगः न सम्भवति. पृथगाश्रय आश्रितत्वम् अपेक्षितं. पृथगाश्रय आश्रितत्वम् इत्यनेन आकाशदेशः भिन्नः भवतु इति विवक्षितः अस्ति. तत्रैव संयोगः सम्भवति इति कृत्वा पृथग् इति एकः अन्यतमः गुणः, पृथक्त्वम् इति एकः अन्यतमः गुणः सिद्धः इति अस्माभिः गतवर्गे परिशीलितमासीत्. गतवर्गे च सव्यसाची महोदयस्य प्रश्नः आसीत् खलु महोदय, घटः पटात् घटः पटो न इत्यत्र अनुयोगी कः प्रतियोगी कः इति प्रश्नः आसीत् खलु. तत् हा घटः पटो न इत्यत्र घटः एव प्रतियोगी, पटः अनुयोगी. तर्हि अस्माभिः किं दृष्टमासीत्, न उत्तरम् अनुयोगी इति उक्तं खलु. तर्हि न उत्तरम् इत्यस्य अर्थः द्विधा ग्रहीतुं शक्यते. नकारात् उत्तरं यत् तत् इति पञ्चमी तत्पुरुषसमासः, नो चेत् नकारः यस्मात् उत्तरम् इति बहुव्रीहिसमासः अपि भवति. तर्हि अस्माकं न्यायवर्गे तु न उत्तरम् अनुयोगी इत्युक्ते नकारः यस्मात् उत्तरं भवति सः एव अनुयोगी इति अस्ति. तर्हि घटः पटो न इत्यत्र नकारः कस्मात् उत्तरमस्ति?
पटस्य
पटात् उत्तरं,
पटात् पटात् पटात्
हा पटः एव अनुयोगी अस्ति. घटः न पटः इत्यत्र
घटः न पटः, अत्रापि पटः भवितुमर्हति इति चिन्तयामि.
अस्तु, नकारः यस्मात् उत्तरम् इति उक्तं खलु.
अस्तु, घटः न पटः, तर्हि नकारः यस्मात् उत्तरम्, अत्र नकारः घटात् उत्तरम् अस्ति, घटः न पटः इति प्रत्यये.
तर्हि घटः अनुयोगी.
अस्तु अस्तु
अस्तु इति अखिला भगिनी पुनः ध्वनिमुद्रणं श्रुत्वा कन्फर्म् कृतवती, महोदयेन तथा उक्तम् आसीत् इति.
अस्तु अस्तु समीचीनम्.
अस्तु हा, नकारः यस्मिन् कस्मिन् अपि प्रतीतौ नकारात् पूर्वं यदस्ति तदेव अनुयोगी, किन्तु समासरूपेण वक्तुम् इच्छति चेत् नकारः यस्मात् उत्तरं न उत्तरम् अनुयोगी इति भवति.
अस्तु समीचीनम्.
अस्तु समीचीनं. घटः हा पटो न इत्यत्र पटः एव अनुयोगी, घटः प्रतियोगी इति आगतमस्ति. अस्तु, अस्माकं मूलविषयः तु आसीत् पृथक्त्वं, गुणान्तरं पृथक्त्वं कथं सिद्ध्यति इति. पृथगाश्रयाश्रितत्वेन संयोगः सिद्ध्यति, तस्मात् गुणान्तरं पृथक्त्वम् इति दृष्टं. तदनन्तरं पुनः नव्यनैयायिकानां कानिचन आपादनानि आसन् खलु. तर्हि ते उक्तवन्तः यत् नियतावधिकत्वम् अस्ति चेत् पृथक्त्वे यथा भेदे अस्ति, तर्हि पृथक् भेदः एव पृथक्त्वम् इति भवतु. नियतावधिकः पदार्थः भेदः इति एतावत्पर्यन्तं जानीमः, सः एव भवतु पृथक्त्वम् इति अन्यतमः गुणः अथवा नूतनपदार्थः मास्तु इति ते उक्तवन्तः. तत्रापि नियतावधिकत्वस्य मानः नासीत् अथवा सीमा नासीत् तर्हि नियतावधिकत्वम् इति वदन्ति, किन्तु कुत्र कुत्र अवधिः इति न उक्त्वा कपालावधिकपृथक्त्वं घटे भवतु इति आशंका उदेति खलु. तदर्थं प्राचीनाः विभागस्यापि तादृशनिखिलावधिकत्वं न स्वीक्रियते, किञ्चित् निवार्यते किञ्चित् स्वीक्रियते अवधित्वं. तद्वदेव पृथक्त्वस्यापि अवधित्वं कुत्र कुत्र अस्ति इत्यस्य विषये ते वदन्ति यत् स्वाश्रयसमवायीकारणपरम्परायां यानि द्रव्याणि भवन्ति तेषु द्रव्येषु पदार्थस्य पृथक्त्वस्य अवधित्वं न भवति इति उक्त्वा तदापादनं निवारयन्ति. इतः अग्रे गत्वापि कानिचन आपादनानि सन्ति, नवनवतितमे पृष्ठे पश्यन्तु तत्र अस्ति, किञ्चित् स्थूलरूपेण वदिष्यामि इतः अग्रे सरेम तदनन्तरं. तर्हि पृथगाश्रय आश्रितयोरेव संयोगः सम्भवति इति वदन्ति चेत् तत्र परमाण्वोः पृथगाश्रय आश्रितत्वं नास्ति, इत्युक्ते परमाणवः निरवयविनः खलु, तेषाम् अवयवः अवयवाः न सन्ति इति कृत्वा कुत्रचिदपि ते आश्रिताः न सन्ति. अतः समवायसम्बन्धेन कुत्रचिदपि आश्रिताः ते न सन्ति इति कृत्वा पृथगाश्रय आश्रितत्वम् इत्येव न उदेति. तर्हि परमाणुद्वयसंयोगः कथं सम्भवति इति प्रश्ने आगते, तर्हि प्राचीनाः वदन्ति परमाणुषु स्वतन्त्रक्रियावत्त्वम् अस्ति, तेन आधारेण परमाणुद्वयसंयोगः सम्भवति, तत्र न कापि किम् आपादनं भवेत्, न किमपि आपादनं भवेत् इति वदन्ति इति तस्य आपादनस्य परिहारः जातः. तदनन्तरं मूर्तविभुसंयोगस्थले अपि एवमेव वदन्ति, मूर्तद्रव्याणां पृथगाश्रयाश्रितत्वम् अस्ति, पृथक्तया स्वस्य अवयवेषु स्थिताः मूर्तपदार्थाः, परन्तु विभुद्रव्याणि तथा न सन्ति खलु, तेषामपि अवयवाः न सन्ति. तर्हि मूर्तविभुसंयोगः कथं सम्भवति इति चेत् तत्रापि एकस्य पदार्थस्य मूर्तस्य अस्ति पृथगाश्रयाश्रितत्वं, तेन तत्रापि संयोगः कारयितुं शक्यः इति ते वदन्ति. तर्हि अन्ततो गत्वा पृथक्त्वम् इति गुणः नितराम् आवश्यकः, पृथक्त्वं भेदात् च विलक्षणः, पृथक्त्वे यः अवधिः अस्ति सः अवधिः अवधिं ज्ञातुं बहु किमपि ज्ञातव्यं न भवति तस्मात् पूर्वं, किन्तु भेदस्थले या प्रतियोगिता अस्ति प्रतियोगितां ज्ञातुं प्रतियोगिता तादात्म्यसम्बन्धावच्छिन्ना अस्ति इति ज्ञातव्यं भवति, अपि च केन धर्मेण प्रतियोगिता अवच्छिन्ना इति ज्ञातव्यं भवति इत्यादिकं कृत्वा भेदप्रतियोगिता तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः इति उच्यते, परन्तु अवधिः तथा नास्ति इति सर्वं पृथक्त्वस्य अवधिः तथा नास्ति, कस्मिन् कस्यचिदपि ज्ञानस्य आवश्यकता नास्ति अवधिं ज्ञातुं. तर्हि एतत् सर्वं दृष्ट्वा पृथक्त्वं नितरां भिन्नः, भेदः इति पदार्थः नितरां भिन्नः, भेदः अन्योन्याभावः, पृथक्त्वं च अन्यतमः गुणः इति साधितः अस्ति. अस्तु, एतत् सर्वम् अस्ति करपत्रेषु अपि च लेखेषु, पठन्ति चेत् पुनस्मरणं भवेदेव. इतः अग्रे सरेम, संयोगनिरूपणम् इति विषयः अस्ति, तर्हि सभ्यमहोदय पठति वा?
आं भगिनि. संयोगनिरूपणं, संयोगं क्रमप्राप्तं लक्षयति, संयुक्तव्यवहारहेतुः संयोगः सर्वद्रव्यवृत्तिः इति. आदौ वियुक्तौ हस्तयोः क्रियावशात् संयोगाख्यः गुणः उत्पद्यते, तं च संयोगं ज्ञात्वा इमौ संयुक्तौ इति शब्दप्रयोगरूपः व्यवहारः भवति, तेन च शब्दप्रयोगेन जिज्ञासवः प्रतिपद्यन्ते हस्तौ संयुक्तौ इति. अस्तु, संयुक्तव्यवहारहेतुः संयोगः, एवं सर्वद्रव्यवृत्तिः इति अस्ति लक्षणवाक्यं. इति संयोगः सर्वद्रव्यवृत्तिः इति लिखितम् अस्ति. अग्रे तस्य व्याख्या भवति. इत्युक्ते प्रथमे लिखितमस्ति आदौ वियुक्तौ, वियुक्तौ वियुक्तयोः, क्षम्यताम्, आदौ वियुक्तयोः हस्तयोः, हस्तद्वयमस्ति इदानीं वियुक्तयोः वियुक्तयोः अस्ति. इत्युक्ते संयोगः न जातम् इदानीं पर्यन्तं, परन्तु क्रियावशात् इत्युक्ते हस्ते क्रिया जाता, तदनन्तरं हस्तयोः संयोगः भवति. तर्हि संयोगाख्यः गुणः उत्पद्यते. संयोगः गुणः हस्ते गते क्रिया क्रियायाः सम्भवेन तदनन्तरं संयोगगुणः उत्पद्यते. तं च संयोगं ज्ञात्वा इमौ संयुक्तौ, इमौ संयुक्तौ इति शब्दप्रयोगरूपः व्यवहारः भवति. तर्हि इदानीं हस्तयोः संयोगः जातः, तं ज्ञात्वा संयुक्तौ, हस्तौ संयुक्तौ इति शब्दप्रयोगः व्यवहारः भवति. एवं तेन च शब्दप्रयोगेण जिज्ञासा भवति इति हस्तौ संयुक्तौ. तर्हि हस्ते कार्यं
जिज्ञासु इत्यस्य बहुवचनं,
अस्तु अस्तु, जिज्ञासु इति पदस्य बहुवचनं जिज्ञासवः, हा, इति हस्तौ संयुक्तौ इति ज्ञानं भवति. तर्हि हस्ते क्रिया भवति इति संयोगः इति गुणः इति अस्ति. प्रथमे हस्तद्वयोः संयुक्तं नाजतं, हस्ते क्रिया भवति, तदनन्तरं हस्तयोः संयोगः, तदनन्तरं शब्दप्रयोगः, एवं तदनन्तरं ज्ञानं भवति.
समीचीनम्. इति सामान्यप्रक्रिया अस्ति खलु, सर्वत्र यत्र व्यवहारघटितलक्षणवाक्यमासीत् तत्र तत्र कश्चन गुणः अस्ति, सः गुणः शब्दप्रयोगं प्रति कारणं भवति. अत्र शब्दप्रयोगः कः?
हस्तौ संयुक्तौ इति संयोगः इति शब्दप्रयोगः.
हा हा, समीचीनं. तादृशशब्दप्रयोगस्य कारणं भवति संयोगः इति विलक्षणगुणः, तदर्थं नूतनगुणः अपेक्षितः इति. अस्तु महोदय, अग्रिमे पृष्ठे एकं चित्रमस्ति.
आमाम् आम्.
पश्यति वा?
आम् आमां
चित्रं विवृणोतु कृपया.
आमामां चित्रस्य सारांशः इति अस्ति हस्तौ संयुक्तौ इति अस्ति. तर्हि हस्तः अस्ति एवं हस्तः हस्तौ संयुक्तौ, अत्र हस्तः इति विशेषणमस्ति, विशेष्यमस्ति, क्षमतां, हस्तः विशेष्यमस्ति, संयोगः विशेषणमस्ति. एवं हस्ते विशेषता अस्ति, संयोगे प्रकारता अस्ति. तर्हि हस्ते हस्तत्वमपि अस्ति, विशेषता अपि अस्ति. एवं संयोगे संयोगत्वमपि अस्ति, प्रकारता अपि अस्ति. एवं हस्तौ संयुक्तौ इति तदनन्तरम् इति ज्ञानं भवति. एवं ज्ञाने कार्यता अस्ति. एवं
हा हा हा, प्रथमं संयोगतः आरभ्यते खलु शब्दप्रयोगः, तदनन्तरं ज्ञानं, ज्ञानस्य आकृतिः का इति.
समीचीनम्. प्रथमे कारणं तदनन्तरं कार्यम् एवं वदति खलु भगिनि. हा अस्तु अस्तु, समीचीनं. शब्दप्रयोगः इति कारणं तद् एवं ज्ञानम् इति कार्यम् अस्ति. इदानीम् अग्रे चित्रस्य अग्रे अत्र पश्यामः चेत् तत्र शब्दप्रयोगः पुनः तत्र शब्दप्रयोगे कार्यता अपि भवति. किमर्थम् इत्युक्ते संयोगः इति कारणं भवति, हस्तयोः संयोगः इति संयोगः कारणं, संयोगे कारणता अस्ति, एवं शब्दप्रयोगे कार्यता अस्ति इति.
तर्हि चित्रं दृष्ट्वा कीदृशशब्दप्रयोगः जायते इति ऊहां कर्तुं शक्नुमः खलु?
कीदृशशब्दप्रयोगः वा? आमामां वक्तुं शक्यते कीदृशशब्दप्रयोगः.
हस्तः संयुक्तः इति आगच्छति शब्दप्रयोगः.
आमामां
भवता यत् पठितं हस्तौ संयुक्तौ इति समीचीनमेव, किन्तु चित्रे तु एकः हस्तः तस्मिन् संयोगः इति चेत् तत्र हस्तः संयुक्तः इति प्रयोगः स्यात्. तदर्थमेव उच्यते संयोगः इति गुणः अस्ति, तस्मात् शब्दप्रयोगः जायते कार्यरूपेण.
अस्तु अस्तु, आमामाम्
अस्तु. शब्दप्रयोगेण पुनः ज्ञानं जायते. तस्य ज्ञानस्य आकृतिः कः इत्युक्ते हस्तः संयुक्तः. तदनन्तरं भवता सर्वम् उक्तमेव इति भाति. हस्तः इत्यस्मिन् विशेष्यता, हस्तत्वावच्छिन्नविशेष्यता, संयोगः इत्यस्मिन् प्रकारता, संयोगत्वावच्छिन्नप्रकारता इति. तर्हि अन्ततो गत्वा वाक्यं रचयितुं शक्नुमः खलु? संयोगस्य लक्षणवाक्यं
किञ्चित्
विवृणोति वा? इच्छति चेत् पूर्वस्मिन् पुटे अस्ति, पश्यतु.
प्रयत्नं करोमि न दृष्ट्वा. आमां, तर्हि हस्तनिष्ठ हस्तत्वावच्छिन्न विशेषता, हस्तत्वावच्छिन्नविशेषता, संयोगनिष्ठ संयोगत्व अवच्छिन्न प्रकारता, निरूपित.
एकनिमिष, तत्र निरूपित इति शब्दः विशेष्यता अपि च प्रकारता अनयोः मध्ये स्यात्, यतोहि विशेष्यता प्रकारतां निरूपयति खलु. तत्र पश्यति, डाटेड् लैन् अस्ति खलु. तर्हि हस्तत्वावच्छिन्न विशेष्यता निरूपित, संयोगत्वावच्छिन्न प्रकारता निरूपकज्ञानं.
आमामां, प्रकारता निरूपक ज्ञानं तत्र अग्रे ज्ञाननिष्ठ कार्यता निरूपित कारणताश्रयः शब्दप्रयोगः, शब्दप्रयोगनिष्ठ कार्यता कार्यता निरूपित कारणताश्रयः संयोगः.
हा, समीचीनम् इति संयोगस्य विवरणमस्ति. तादृशकारणताश्रयत्वं संयोगस्य लक्षणम् इति उक्त्वा लक्षणवाक्यं साधयितुं शक्नुमः. तटस्थलक्षणम् इति यद् किमपि परिशीलितमासीत्. अस्तु, समीचीनमस्ति. तर्हि इतः अग्रे एकं चित्रमस्ति, पञ्च क्षणपञ्चकव्यापिनी प्रक्रिया कथं भवति इति चित्रस्य परिशीलनेन ज्ञातुं शक्नुमः. एतस्य चित्रस्य उपयोगः विभागस्य विवरणसन्दर्भे भवति. तर्हि चित्रे प्रदर्शितमस्ति यत् प्रथमक्षणे घटे क्रिया भवति. अस्तु, पूर्वं घटे संयोगः आसीत् इति चिन्तयन्तु. तर्हि प्रथमक्षणे घटे क्रिया भवति, द्वितीयक्षणे घटे विभागः भवति. आकाशदेशः यस्मिन् अस्ति, घटः यस्मिन् आकाशदेशे अस्ति ततः घटस्य विभागः. तृतीयक्षणे अस्ति विभागतः संयोगनाशः. चतुर्थक्षणे अपरेण देशेन सह पुनः घटस्य संयोगः, तदनन्तरमेव क्रियानाशः भवति इति काचित् प्रक्रिया प्रदर्शिता अस्ति. अस्य उपयोगं पुनः कुर्मः विभागविवरणसन्दर्भे इति अस्ति. अस्तु, इतः अग्रे संयोगस्य प्रकाराः के इति प्रदर्शितं चित्रं पश्यन्तु. तत्र संयोगः क्रियाजन्यः अथवा संयोगजन्यः भवति इति जानीमः. इदानीं हस्तपुस्तकयोः संयोगः क्रियया जायते, कर्मजः संयोगः. तेन संयोगेन कायपुस्तकस्यापि संयोगः जायते, सः संयोगजः संयोगः इति जानीमः. पुनः क्रियाजन्यः एकतरक्रियाजन्यः अथवा उभयतरक्रियाजन्यः इति प्रदर्शितमस्ति. एकतरक्रियाजन्यः इत्युक्ते एकस्मिन्नेव पदार्थे क्रिया भवति. हस्तपुस्तकयोः संयोगः इति चेत् तत्र हस्ते एव क्रिया भवति, एकतरक्रियाजन्यः. उभयतरक्रियाजन्यः इत्युक्ते उभयोः संयोगिनोः क्रिया भवति. अत्र तु उदाहरणं दत्तमस्ति मेषयोः संयोगः, मेषः इत्युक्ते शीप्, द्वयोः मेषयोः यदा संयोगः भवति तदा इति उभयतरक्रियाजन्यः, उभयोः क्रिया अस्ति इति कृत्वा. पुनः संयोगस्य वैविध्यं सञ्जायते अभिघातः नोदनम् इति, संयोगात् ध्वनिः उत्पद्यते अथवा शब्दः उत्पद्यते न वा इत्यस्य आधारेण अभिघातः इत्यस्मिन् संयोगे शब्दः उत्पद्यते, नोदनम् इत्यस्मिन् न उत्पद्यते. तर्हि एवमस्ति संयोगस्य प्रकाराः इति विचारः. अग्रिमगुणः अस्ति विभागः इति, इतः अग्रे सरेम. अत्र कोऽपि प्रश्नः वा?
अत्र भगिनि, तत्र अभिघातः नोदनं किञ्चित् तत्र मेष उदाहरणम् उपयुज्य एव दत्तं वा अथवा कदा भवति वा अभिघातः नोदनमिति?
अभिघातः नोदनमिति यावत् अहं जानामि उभौ अपि क्रियाजन्यसंयोगमेव, अस्तु, क्रियातः जायते. किन्तु अभिघातसंयोगे शब्दः जायते. अत्र तु अभिघातः इति शिष्याय चपेटिकां ददाति अध्यापकः इति उक्तं. चपेटिका इत्युक्ते स्लाप् इति, तद् ददाति चेत् तत्र शब्दः जायते खलु, हस्तकपोलयोः संयोगः. हा, तादृशः अभिघातः. नोदनम् इत्युक्ते विना शब्दं कश्चन संयोगः भवति चेत्, वायुः, हा, वायुः सरति मन्दं,
तत्र स्पन्दनं, तत्र किमपि स्पन्दनं करोति तत्र नोदनम् इति वक्तुं शक्यते वा?
स्पन्दः इति भिन्नरीत्या अपि विवृतम् आसीत् न्यायशास्त्रे. भवतः विवक्षायां स्पन्दनम् इत्युक्ते किम्?
स्पन्दनम् इत्युक्ते शेकिङ्ग्.
शेकिङ्ग् इति न, यदा स्पर्शं करोति मन्दं, टचिङ्ग्, तथा तत्र शब्दः न जायते चेत् नोदनं भवति.
नोदनं भवति,
अस्तु. एकतरक्रियाजन्यः उभयतरक्रियाजन्यः इति भिन्नवार्ता अस्ति. यतोहि एकतरक्रियाजन्यः इत्युक्ते एकस्मिन्नेव संयोगिनोः मध्ये एकस्मिन्नेव संयोगिनी भवति क्रिया इति.
उभयतर उदाहरणं वदामि, हस्तपुस्तयोगसंयोगः, तस्मिन् उदाहरणे हस्ते क्रिया जायते परन्तु पुस्तके अपि किञ्चित् क्रिया भवितुम् अर्हति, तत्र उभयतरक्रियाजन्यः इति वक्तुं शक्यते वा तत्र?
यदि कथञ्चित् पुस्तके अपि क्रिया जायते चेत् आम्, परन्तु सामान्यतया हस्ते एव जायते खलु क्रिया, पुस्तकक्रिया. अस्तु, इति संयोगस्य विचाराः. अग्रे गत्वा विभागः इति विषयः. विद्याशङ्कर महोदय.
आं भगिनि, विभागं लक्षयति संयोगनाशको गुणः विभागः सर्वद्रव्यवृत्तिः इति. संयोगप्रक्रियायां क्रिया उत्पत्तिद्वितीयक्षणे अयं गुणः उत्पद्यते, पूर्वदेशसंयोगस्य नाशकः च भवति, तत्प्रक्रिया च संयोगनिरूपणे अनुपदमेव निरूपिता. संयोगनाशकः गुणः विभागः इति विभागस्य लक्षणवाक्यं. विभागः सर्वद्रव्यवृत्तिः इत्युक्ते सर्वेषु द्रव्येषु विभागः भवितुम् अर्हति. पूर्वस्मिन् पुटे यत् चित्रं वा कोष्टकम् आसीत् तत्र पञ्चक्षणव्यापिनी इति तत्र विवृतम् अस्ति. तस्मिन् चिन्तयामः, एकः घटे यथा भगिनी उक्तवती एव, घटः एकस्मिन् देशे स्थिरः अस्ति, तत्र क्रिया भवति चेत् आरम्भे क्रिया भवति, तृतीयक्षणे यस्मिन् आकाशदेशे घटः स्थिरः आसीत् तस्मात् विभागः भवति, विभागस्य अनन्तरक्षणे संयोगस्य नाशः भवति. इत्युक्ते संयोगप्रक्रियायां द्वितीयक्षणे गुणः विभागः गुणः उत्पद्यते, तस्मात् एव संयोगस्य नाशकः भवति. इत्युक्ते विभागः संयोगनाशस्य कारणम् इति वक्तुं शक्नुमः.
समीचीनं. किन्तु एतावत् पर्यन्तं तैः कार्यकरणभावः न प्रदर्शितः. लक्षणवाक्ये तादृशम् इङ्गितम् अस्ति वा इति न जाने. हा, संयोगनाशकः, हा, संयोगनाशकः गुणः विभागः इत्युक्ते नाशकः इति नुल् प्रत्ययः खलु, तर्हि सः नाशयति, संयोगं नाशयति इति विभागः. आम् अस्तु, हा, अग्रे पठतु महोदय.
संयोगनाशात् विभागः न अतिरिक्तः इति आक्षेपः. अत्र इदं चिन्त्यते, क्रिया क्रियातः विभागः, विभागात् पूर्वसंयोगनाशः, ततः अन्तरोत्पत्तिः, ततः क्रियानाशः इति प्रक्रिया यदा तदा युज्यते यदा संयोगनाशात् अतिरिक्तः कश्चित् विभागाख्यगुणः अभ्युपगम्येत, सः एव तु न अङ्गीक्रियते. आक्षेपः उक्तमस्ति. विभागः इति गुणः आवश्यकं वा? संयोगनाशात् विभागः न अतिरिक्तः, संयोगनाशः एव विभागः इति आक्षेपः. अत इदं चिन्त्यते, पूर्वस्मिन् पुटे यत् आसीत् प्रक्रियाक्रमः आसीत्, तत्र क्रियानाशः घटे क्रिया, अनन्तरं विभागः, अनन्तरं संयोगनाशः, अनन्तरं नूतनसंयोगः, क्रियानाशः इति आसीत्. एषा प्रक्रिया तदा युज्यते यदा संयोगनाशात् अतिरिक्तः कश्चित् विभागाख्यगुणः अङ्गीक्रियेत, यथा स्वीकुर्वन्ति. परन्तु एषा प्रक्रिया तैः न अङ्गीक्रियते. किमर्थमित्युक्ते चेत् विभागः एव संयोगनाशः इति, संयोगात् पूर्वं विभागः अवश्यं वा न वा इति प्रश्नः अस्ति.
सत्यं. तर्हि भिन्नभिन्नगुणाः इत्येव न, भिन्नभिन्नपदार्थाः इत्येव न अङ्गीक्रियते. विभागः अपि च संयोगनाशः भिन्नौ पदार्थौ न स्याताम् इति उक्त्वा आक्षेपं कुर्वन्ति, ये केऽपि आक्षेपं कुर्वन्तः सन्ति अत्र. अस्तु, किन्तु प्रक्रियाम् अङ्गीक्रियते चेत् तदा विभागाख्यः गुणः नितराम् आवश्यकः भवति. विभागतः संयोगनाशः भवति इति अङ्गीक्रियते चेत्, तद् न अङ्गीक्रियते चेत् तर्हि किम् इति अग्रे अपि अग्रे अस्ति. ये केऽपि न अङ्गीकुर्वन्ति ते आक्षेपं कुर्वन्ति, तर्हि आक्षेपस्य परिहारः कः इति अग्रे अपि पठतु महोदय.
आक्षेपम् अमुं केचन इत्थं परिहरन्ति, यथा क्रिया उत्पत्ति अनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनप्रसिद्धेन संयोगनाशः सिद्ध्यति, तथैव घटपटविभक्तौ इति अवपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंस अतिरिक्तः विभागाख्यः गुणः सिद्ध्यति सिद्ध्यति एव इति कथं वदन्ति इति अत्र उत्तरम् अस्ति. यथा क्रिया उत्पत्ति अनन्तरं घटपटयोः संयोगः नष्टः, तथा एव इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति ज्ञानं भवति, तथा एव घटपटो विभक्तौ इति भावपदार्थेन संयोगध्वंस अतिरिक्तः विभागाख्यः गुणः सिद्ध्यति एव इति. संयोगनाशः यदा भवति घटपटयोगो, तत्र घटपटो विभक्तो इति वदनम् आवश्यकं वा इति प्रश्नः उदे.
हा, तर्हि आवश्यकं वा इति ये आक्षेपं कुर्वन्ति ते तथा वदन्ति, किन्तु आक्षेपस्य सामान्यपरिहारः इदमेव, यः परिच्छेदः भवता पठितः सः एव. क्रियोत्पत्ति अनन्तरं घटपटयोः संयोगः नष्टः इति प्रत्ययः जायते वा इदानीं? हा, घटपटयोः संयोगः अस्ति इति चिन्तयतु. एका क्रिया जायते घटे वा अथवा पटे, तदनन्तरं घटपटयोः संयोगः नष्टः इति प्रत्ययः अथवा ज्ञानं जायते वा? आनुभविकं खलु. हा, ज्ञानम् इति कीदृशपदार्थः? न न एक ज्ञानम् इति सविषयकपदार्थः इति उच्यते खलु. ज्ञानस्य सर्वदा विषयः भवति एव.
तर्हि
हा हा सविषयकः. तर्हि संयोगनष्टः इत्यत्र कः विषयः भवति?
नष्टः इति
नाशः. हा, संयोगनाशः इति भवति. संयोगनाशः कीदृशपदार्थः पुनः?
अभावपदार्थः वा?
हा, अभावपदार्थः. यतोहि नाशः इत्युक्ते प्रध्वंसाभावस्य रूपः रूपमस्ति.
इदानीं नास्ति इति.
हा, किमपि नास्ति, संयोगः नास्ति इति प्रध्वंसाभावरूपपदार्थः अस्ति संयोगनाशः. सः पदार्थः, सः विषयः कुत्र प्रतीयते इत्युक्ते संयोगः नष्टः इत्यस्मिन् प्रत्यये. अस्तु, इदानीम् अपरः अपि एकः प्रत्ययः जायते, घटपटौ विभक्तौ इति. तत्र कः विषयः अस्ति?
तत्र भाव विभक्तौ इति नूतनः भावपदार्थस्य ज्ञानं भवति.
हा हा, समीचीनं. तर्हि तदेव एते वदन्ति आक्षेपस्य परिहारार्थं, संयोगनष्टः इति सर्वजनसिद्धप्रत्ययेन, सर्वजनसिद्धप्रत्ययः इत्युक्ते आनुभविकप्रत्ययं खलु. तत्र संयोगनाशः सिद्ध्यति यथा तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन. तावत् स्पष्टं? घटपटौ विभक्तौ इति भावपदार्थं विषयीकरोति तादृशप्रत्ययः. तेन ज्ञानेन संयोगध्वंसातिरिक्तः विभागाख्यः गुणः. संयोग संयोगध्वंसः इत्युक्ते संयोगनाशः, ध्वंसः इत्युक्ते प्रध्वंसाभावः, नाशः. तर्हि भावपदार्थेन संयोगनाशातिरिक्त कश्चन गुणः, विभागनाम्नः गुणः सिद्ध्यति इति सामान्यपरिहारः ते वदन्ति. यतोहि अनुभवद्वयमपि जायते, संयोगः नष्टः, घटपटौ विभक्तौ इति अनुभवद्वयमपि जायते अस्मिन् सन्दर्भे इति कृत्वा. अपि च अभावः, अभावः इति तादृशपदार्थः अस्ति यस्य पूर्वज्ञानार्थं, यस्य ज्ञानार्थं बहु किमपि ज्ञातव्यं भवति. प्रतियोगिता का इति, प्रतियोगी कः इति सर्वं ज्ञातव्यं भवति खलु. अभावः तादृशपदार्थः. भावपदार्थः तथा नास्ति. प्रतियोगिता ज्ञानादीनज्ञानविषयः नास्ति भावपदार्थः खलु. तर्हि द्वौ भिन्नौ ज्ञाने, द्वे भिन्ने ज्ञाने स्तः तयोः विषयौ भिन्नौ इति सर्वं दृष्ट्वा संयोगनाशः भिन्नः, विभागः भिन्नः इति सामान्यपरिहारं ददति.
भगिनी नमस्कारः, राजेन्द्र अस्मि.
न न चिन्ता नास्ति. के के सन्ति अनन्तरम्? अन्य कोऽपि अस्ति वा?
भगिनी अर्जितः.
अस्तु, नमस्कारः महोदय. अस्तु, इति तेषां सामान्यपरिहारः आसीत्. इतः अग्रे सरेम. गोपालमहोदय अग्रे
कुत्र सूक्ति राजनीतिका तत्र आरभ्य वा? तदपरे तद् अपरे न सहन्ते तेषां तेषाम् अयम् आशयः घटपटौ विभक्तौ इति प्रत्यय अपि न भावपदार्थं प्रकाशयति किन्तु संयोग अभावमेव. तस्य भावपदार्थान्तर भावपदार्थान्तरावगाहित्वेपि तादृशविभागोत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भवेन विभागस्य संयोगनाशरूपककार्यपूर्ववृत्तित्व अभावात् मूलोक्तं संयोगनाशको गुणो विभाग इति असङ्गतम् इति. असङ्गतम् अत्र तत्र केचन न अङ्गीकुर्वन्ति तेषाम् अयम् आशयः किम् इत्युक्ते यत्र घटः घटपटविभक्तौ इति प्रत्ययः तत्र विभक्तौ इति विभागः इति भावपदार्थं न प्रकाशयतु तत्र केवलं संयोग अभावः एव इति केचन वदन्ति तस्य भावपदार्थान्तर अवगाहितत्वे अपि भावपदार्थान्तर अवगाहिते अपि तत्र यद्यपि तत्र भावपदार्थभिन्न ज्ञानस्य अपि तत्र तत्र विभाग उत्पत्तिक्षणे एव विभाग उत्पत्तिक्षणे यत्र विभागः जायते
किञ्चित् खण्डशः परिशीलयिष्यामः अस्तु. तस्य भावपदार्थान्तरगाहित्वेपि कस्य
तस्य विभागस्य विभागस्य भावपदार्थान्तर अवगाहित्वे अपि
तत्र अपि इति पदं यद्यपि तथापि इत्यस्मिन् अर्थे स्वीकरोति चेत्
यद्यपि स्वीकुर्मः चेत् तदापि तादृशविभाग उत्पत्तिक्षणे यस्मिन् समये विभाग उत्पत्तिः जायते तस्मिन् क्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिः सम्भवते तत्र समानकाले द्वयोः उत्पत्तिः जायते इति वदामः
के केपि आक्षेपं कुर्वन्ति सामान्यपरिहारः यः पठितः विद्याशङ्करमहोदयेन तद् न अङ्गीकुर्वन्ति पुनः वदन्ति यत् यद्यपि विभागः भावपदार्थः इति प्रतीयते तथापि तादृशविभागः यस्मिन् क्षणे उत्पद्यते तस्मिन्नेव क्षणे संयोगध्वंसः अपि
समानकाले
पूर्वसंयोगध्वंसः इत्युक्ते
यत् विभागात् पूर्वं
इति भ्रमः स्यात् तदर्थं पृष्टवती. पूर्वसंयोगः इत्युक्ते पूर्वस्मिन् आकाशदेशे यः संयोगः आसीत् खलु सः इति अर्थः. तर्हि अस्माकं लोके अनुभवः अपि तथा भवति खलु, प्रथमं विभागः तदनन्तरं संयोगनाशः इति कोऽपि न अनुभवति. सत्यम् इति कृत्वा समानकालिकजन्ये इति ते वदन्ति.
समानकालिकजन्यः पूर्व विभागः भावपदार्थम् इति वार्ता न आवश्यकता
इत्युक्ते यद्यपि विभागः तथा भावपदार्थः भिन्नः इति प्रतीयते तथापि उभयोः समानकालिक उत्पत्तिः सम्भवेन किम् अग्रे पठतु.
सम्भवेन विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्व अभावात् तत्र संयोगनाशरूपकार्यपूर्ववृत्तित्व अभावात् इत्युक्ते संयोगनाशरूपकार्यपूर्ववृत्तित्वं नास्ति विभागस्थले.
तर्हि किञ्चित् स्मारयतु महोदय, तत्र कार्यकारणभावस्थले तत्र निकषः
पूर्वं कार्यं तदनन्तरं
सत्यं कारणं सर्वदा कार्यपूर्ववृत्तिः स्यात् खलु. परन्तु अधुना समानकालिकोत्पत्तिः इति स्वीक्रियते चेत् किम् अभवत्?
तत्र कार्यपूर्ववृत्तित्वं नास्ति, पूर्ववृत्तित्व अभावः.
समीचीनम्. अत्र कार्यमिति किम्?
कार्यमित्युक्ते विभागः
न संयोगनाशरूपकार्य इति उक्तं.
संयोगनाशः इति कार्यं
सत्यं, विभागः कारणं. तर्हि संयोग संयोगनाशरूपकार्यात् पूर्वं नास्ति विभागः समानकालिक उत्पत्ति इत्यनेन
संयोगनाशकगुणः विभागः इति असङ्गतम् इत्युक्ते विरोधः सङ्गम् इत्युक्ते जायिनिङ्ग् अयुक्तः इति
अत्र वस्तुतः गम् इति जातुः न सङ्गच्छते
न सङ्गच्छते
न सङ्गच्छते अथवा न किं तर्कः युगपत् न गच्छति तादृश अर्थे न सङ्गच्छते अनुचितमस्ति तथा
संयोग संयोगनाशरूपक पूर्यवृत्तित्वम् अभावात् संयोगनाशकः गुणः विभाग नाशकः गुणः विभागः इति असङ्गच्छते
अथवा अनुचितं भवति इति
भवति
इति अस्ति. तर्हि क्षणपञ्चकव्यापिनी प्रक्रियायां तथा प्रदर्शितमस्ति खलु क्रिया क्रियातः विभागः विभागतः संयोगनाशः ततः पुनः नूतनसंयोगः तदा क्रियानाशः
खलु. तत्र कारणकार्यं प्रतिपादितम् अस्ति किल विभागः.
हा सत्यं तत्र तु विभागः पूर्वक्षणवृत्तिः इति प्रदर्शितम्
आम् तत्र आम्
इति ते न अङ्गीकुर्वन्ति एव प्रक्रियामेव न अङ्गीकुर्वन्ति तथा चेत् समकालिकजन्यत्वम् अस्ति चेत् द्वितीयक्षणे तृतीयक्षणम् इति न भवति समानमेव भवति खलु.
एवं चेत् तत्र संयोगनाशकगुणः विभागः इति न अङ्गीकर्तुं शक्यते.
सत्यं सत्यम् इत्युक्ते यद्यपि प्रतीतिद्वयमस्ति लोके अस्तु घटपटौ विभक्तौ घटपटयोः संयोगः नष्ट इति प्रतीतिद्वयं यद्यपि लोके अस्ति तथापि तस्य भावप्रत्यय अवगाहित्वेन अपि विभागस्य तद् भावपदार्थः नास्ति संयोगध्वंसः एव इति ते वदन्ति अनेन कारणेन यद्भवता पठितम् अस्तु अस्तु अग्रे सरेम. इतः इतः अग्रे कस्य नाशः केन केन भवति इति विचारः अन्ततो गत्वा संयोगनाशकः विभागः इति साधितव्यं खलु. तदर्थं द्रव्यस्य नाशः केन भवति गुणस्य नाशः केन केन भवति इति सर्वं परिशीलनीयम् अस्ति इति अग्रिमः विषयः. अखिला भगिनी अग्रे पठति वा.
अत्र उच्यते नाशापरपर्याय ध्वंसः तावत् कस्य कस्य केन केन कारणेन उत्पद्यते इति तावत् आलोचयामः. प्राग्भावं विहाय सामान्यादीनां न भवति एव नाशः. प्राग्भावः तावत् प्रतियोगिसामग्र्या नश्यति. दण्डचक्रादिसमवादने कपालद्वयसंयोग उत्पत्तिक्षणे हि घटसामग्री, तद् अग्रिमक्षणे घटोत्पत्तिः, तस्मिन् क्षणे प्राग्भावस्य नाशः. एवं क्रियानाशः उत्तरदेशसंयोगः भवति. अभिघातादिसंयोग संयोगवशात् घटादौ क्रिया, ततः सम्प्रति साधयितुम् इष्टः विभागः, ततः पूर्वदेशसंयोगनाशः, ततः उत्तरदेशसंयोग उत्पत्तिः, तत् अग्रिमक्षणे नश्यति क्रिया. इत्युक्ते यदा भवती उक्तवती तत्र नाशः कथं भवति इति विचारः अस्ति अत्र. तर्हि अत्र वस्तुतः ते वदन्ति तत्र तत्र यत्र प्राग्भावं विहाय अन्यत्र एव तत्र अन्यत्र न भवति नाशः इति. इत्युक्ते तत्र प्राग्भावः तु तत्र यदा प्रतियोगिसामग्री इत्युक्ते इदानीं घटस्य उत्पादनम् इति अस्ति चेत्
हा अत्र भगिनी किञ्चित् वदतु सामान्यादीनाम् इत्युक्ते किम्. प्राग्भावं विहाय सामान्यादीनां न भवति एव नाशः इति उक्तं खलु.
सत्यं सामान्यादीनाम् इत्युक्ते तत्र सामान्यः इति पदार्थः सामान्यादि अन्यपदार्थ ते तत्र न भवति नाशः इति.
वस्तु हा वस्तुतः तत्र क्रमः द्रष्टव्यः भवति. तृतीये पुटे द्रव्यगुणकर्म सामान्यविशेषः समवायः अभावः इति अस्ति. तर्हि सामान्यादीनाम् इत्युक्ते सामान्यात् आरभ्य विशेषः समवायः अभावः. द्रव्यगुणकर्मविहाय आम् इत्येषां नाशः भवति. क्षम्यताम् इत्येषां नाशः न भवति एव. परन्तु एतदपि मनसि भवेत् यत् प्रागभावः अन्यतमः अभावः. यद्यपि सामान्यविशेषः समवायः अपि च अभावः इत्येषां नाशः न भवति इति यद्यपि उक्तं, तथापि मनसि भवेत् यत् प्रागभावः इति अभावे अन्तर्गतः अस्ति. केवलं प्रागभावस्य
इत्युक्ते तत्र सामान्यादिपदार्थेषु अन्यविध अभावः भवितुम् अर्हति, प्रागभावः नास्ति इति एव.
सत्यम् इति वार्ता. अस्तु अग्रे.
तर्हि इदानीं तत्र घट उत्पत्तिः इति विषये तत्र क्षम्यतां भगिनि, तत्र दण्डचक्रादिसमवादने कपालद्वयसंयोग उत्पत्तिक्षणे हि इत्युक्ते यदा वयं तत्र दण्डादि सामग्र्यः स्वीकृत्य तत्र घट उत्पत्ति कुर्मः चेत् तत्र कपालद्वयसंयोगः भवति, तद् अग्रिमक्षणे तत्र घट उत्पत्तिः भवति. तर्हि यस्मिन् क्षणे तत्र इदानीं घट उत्पत्तिः भवति तस्य तस्मिन् क्षणे एव तत्र प्रागभावस्य नष्टः भवति. इत्युक्ते कस्य प्रागभावस्य इत्युक्ते घटस्य प्रागभावस्य नष्टः इति. तत्र क्रिया इदानीं तत्र क्रिया तस्य पूर्वं क्रिया अपि जाता, क्रियया एव संयोगः अभवत्. तर्हि तत्र क्रियानाशः भवति उत्तरदेशसंयोगात् इति. इत्युक्ते प्रथमं क्रियायाः क्रिया भवति इति कृत्वा तत्र संयोगः, संयोगस्य अनन्तरं तत्र इदानीं द्रव्योत्पत्तिः इति क्रमः अस्ति अत्र, खलु भगिनि?
वस्तुतः तस्मिन् क्षणे प्रागभावस्य नाशः, तदनन्तरं विषयान्तरमेव. तावत्पर्यन्तं घटस्य प्रागभावं प्रागभावः कथं नश्यति इति तावदेव. दण्डचक्रादिसमवधाने कपालद्वयसंयोगोत्पत्ति, तत् सर्वं मिलित्वा घटसामग्री. यदा घटसामग्री सिद्धा तदनन्तरं घटोत्पत्तिः भवति, तदा एव तस्मिन् क्षणे एव प्रागभावः नश्यति इति सर्वम् उक्तं. यदुक्तं तत् प्रागभावस्य नाशप्रसङ्गे. ततः अग्रे विषयान्तरं तत्र क्षणपञ्चकव्यापिनी प्रक्रियां सूचयति.
हा अस्तु अस्तु. तर्हि क्रियानाशस्य अनन्तरं क्रियानाशः भवति तत्र संयोग, तदनन्तरं यः संयोगः भवति तेन. इदानीं तत्र संयोगः अस्ति इति अभिघातादिसंयोगवशात् घटादौ क्रिया. तर्हि तत्र पुनः क्रिया भवति. इदानीं क्षम्यतां भगिनि, तत्र मम किञ्चित् भ्रमः अस्ति.
एवं क्रियानाशः उत्तरदेशसंयोगात् भवति इति उक्तं खलु. तर्हि पूर्वस्मिन् शततमे पुटे पश्यतु, क्रियानाशः इति पञ्चमे क्षणे अस्ति खलु.
सत्यं.
सः क्रियानाशः उत्तरदेशसंयोगात् भवति. उत्तरदेशसंयोगः इत्युक्ते चतुर्थक्षणे यः संयोगः जातः सः उत्तरदेशसंयोगः खलु. पूर्वम् एकः संयोगः आसीत्, पूर्वदेशसंयोगः. घटस्य पूर्वदेशसंयोगः आसीत् आद्यक्षणात् प्रागपि. तस्मिन् घटे क्रियाजाते विभागः, विभागे जाते संयोगनाशः. तदनन्तरं चतुर्थे क्षणे उत्तरदेशसंयोगः. तदनन्तरं तस्मात् उत्तरदेशसंयोगात् क्रियानाशः भवति पञ्चमक्षणे इति एव विवक्षितम् अत्र एकस्मिन्.
हा अस्तु. तर्हि आरम्भे अपि क्रिया अस्ति, अन्ते अपि क्रिया अस्ति इति एव.
आरम्भे क्रिया अस्ति इत्युक्ते कुत्र?
इत्युक्ते आद्यक्षणे अपि क्रिया क्रिया इति हा क्रिया इति तर्हि क्रियायाः अनन्तरं तत्र विभागः संयोगनाशः संयोगः पुनः क्रिया खलु
पुनः क्रियानाशः
क्रियानाशः क्षम्यतां हा 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 क्षम्यतां हा हा अस्तु हा तत्रैव किञ्चित् भ्रमः जातः
प्रश्नः अस्ति तत्र क्रियानाशः पञ्चमक्षणे भवति परन्तु तत्पर्यन्तं ये एकमेव एका एव क्रिया एव उत्तरस्थल संयोगक्रिया भिन्नः वा इति
क्रियानाशः इति यः नाशः भवति पञ्चमक्षणे सः नाशः तु प्रथमक्रियायाः नाशः खलु
प्रथमक्रिया
तदनन्तरम् उत्तरदेशसंयोगः यदा भवति तदा अन्याः क्रियाः स्युः परन्तु आद्यक्षणक्रियायाः नाशः पञ्चमक्षणे जायते इति अस्ति तर्हि अस्मिन् परिच्छेदे प्रागभावस्य नाशः कथं जायते इति दर्शितवन्तः ते पुनः क्रियानाशः कथं जायते इति अधुना विषयः तावदेव अस्तु अग्रे भगिनि अभिघातादि
हा अभिघातादिसंयोगात् घटादौ क्रिया तर्हि इदानीं तत्र संयोगः अस्ति इति कृत्वा यः हा
पुनः ब्रह्मजनात्मकमेव अस्ति अभिघातादिसंयोगवशात् इति इत्युक्ते प्रथमक्षणे या क्रिया जायते खलु तस्याः उल्लेखः क्रियते अत्र
सत्यं तर्हि तत्र प्रथमक्षणे तत्र क्रिया जायते क्रिया हा तर्हि तत्र क्रिया अस्ति इति कृत्वा संयोगः भवति इति खलु भगिनि तर्हि तत्र पर इदानीं तत्र विभागस्य विषये स्मः तर्हि विभागस्य अन तर्हि संयो तत्र पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोग उत्पत्तिः तद् अग्रिमक्षणे नश्यति क्रिया इत्युक्ते पूर्व तत्र इदानीं तत्र किमपि उदाहरणं स्वीकुर्मः चेत् पुस्तकं प्रायः तत्र भूतले अस्ति चेत् इदानीं तत्र हस्ते स्वीकुर्मः तर्हि पूर्वदेशसंयोगः इति हस्तभूतलयोः संयोगः अस्ति तस्य नाशः भवति तदनन्तरम् उत्तरदेशसंयोग उत्पत्तिः इत्युक्ते हस्तपुस्तकयोः संयोगः भवति यदा हस्तपुस्तकयोः संयोगः भवति तत्र क्रिया नश्यति इति एव क्रमः खलु
हा इति क्षणपञ्चकव्यापिनी प्रक्रिया प्रदर्शिता अस्तु समीचीनं केवलं क्रियानाशः कथं जायते इत्यस्य प्रदर्शनार्थं प्रागभावनाशः जायते सामग्रीसमवधानेन क्रियानाशः जायते उत्तरदेशसंयोगात् तावदेव अस्य परिच्छेदस्य सारांशः अस्तु यथा मयोक्तं भिन्नभिन्नपदार्थानां नाशः कथं जायते इति सूचयित्वा अन्ततो गत्वा संयोगनाशः कथं भवति इति ते वदन्ति अत्र इति अस्ति वार्ता अस्तु तर्हि वेङ्कटेशमहोदय पठितुम् इच्छति वा अग्रे
पठामि श्रूयते वा
हा हा अग्रिमपरिच्छेदः अस्ति द्रव्यनाशः कथं भवति इति तत्तु सरलमेव स्यात् द्रव्यनाशः भवति समवायिकारणनाशात् यतोहि घटः अस्ति घटे विद्यमानौ द्वौ कपालौ ते नश्यतः तौ नश्यतः चेत् द्रव्यनाशः भवति पुनः कपालद्वयसंयोगः इति यद् असमवायिकारणमस्ति तद् नश्यति चेदपि घटः नश्यति कपालः न नष्टः किन्तु घटः नष्टः खलु इति सारल्यमस्ति तत्र अतः द्रव्यनाशः समवायिकारणनाशात् असमवायिकारणनाशाद्वा भवति इति वार्ता ततः अग्रे पठतु गुणनाशः कथं भवति इति अस्ति अग्रिमपृष्ठे प्रथमपरिच्छेदः
गुणनाशं सम्प्रति चिन्तयामः गुणसमवायिकारणनाशात् भवति गुणनाशः यथा घटे नष्टे तद्रूपं नश्यति निमित्तकारणनाशादपि भवति गुणनाशः द्वित्वसङ्ख्यां प्रति द्रव्यं समवायिकारणं दर्शितरीत्या आश्रयगतम् एकत्वं च असमवायिकारणं भवति एवम् अपेक्षाबुद्धिः इति ज्ञानविशेषः निमित्तकारणं भवति इति वैशेषिकाः वदन्ति तस्याः नाशेन द्वित्वादिसङ्ख्यानाशं च एतत्तत्त्वं परिशिष्टे द्रष्टव्यं तथा च अत्र निमित्तकारणनाशात् गुणनाशः तर्हि तत्र इदानीं गुणनाशं सम्प्रति वयं चिन्तयामः चिन्तनं कुर्मः तत्र गुणनाशः केन कारणात् भवति इत्युक्ते गुणसमवायिकारणनाशात् गुणनाशः भवति यथा तत्र इदानीं घटे घटस्य नष्टे सति तस्य रूपमपि नश्यति इति तस्य समाधानमस्ति तत्र तर्हि तत्र गुणनाशः यदा द्रव्यं द्रव्यस्य नष्टः भवति तस्य तस्मिन् आश्रितगुणमपि तदा एव तत्र नष्टः भवति इति परन्तु तत्र
इति समवायिकारणनाशेन समवायिकारणनाशात् गुणनाशः इत्यस्य उदाहरणम्
इति सत्यं परन्तु तत्र गुणनाशः
एतद् मनसि भवेत् यत् संयोगः इति गुणः तस्य नाशः विभागेन जायते इति वार्ता तदेव साधयितुम् इच्छन्ति तदर्थं गुणनाशनाशस्य विषये एतेषाम् अवधानं केन केन कारणेन गुणनाशः भवति इति
तर्हि परन्तु अत्र निमित्तकारणनाशादपि गुणनाशः तत्र भवितुम् अर्हति तर्हि तत्र भवति तर्हि तत्र उदाहरणं एकत्वं द्वित्वम् इति सङ्ख्यां प्रति तत्र तत्र नाशः द्रव्यं समवायिकारणं दर्शितरीत्या इत्युक्ते तत्र पुटसङ्ख्या
द्वित्वसङ्ख्यां प्रति तत्र अवगन्तुं शक्नुमः इति भाति द्वित्वसङ्ख्यां प्रति द्रव्यं समवायिकारणं तदेव दर्शितम् इति भाति तस्मिन् पुटे तावदेव
सत्यं तर्हि तत्र आश्रयगतम् एकत्वं च असमवायिकारणं भवति
इति दर्शितं प्रायः
तर्हि तत्र एवम् अपेक्षा तत्र अपेक्षाबुद्धिः इति ज्ञानविशेषः एव निमित्तकारणं भवति इति वैशेषिकाः वदन्ति तर्हि द्वित्वं प्रति तत्र इदानीं तत्र नाशः इति द्रव्यस्य नाशः न भवति परन्तु तत्र
द्वित्वस्य समवायिकं किम्
द्वित्वस्य समवायिकारणं एकत्वं किल
न समवायिकारणम् इत्युक्ते
समवायिकारणं सत्यं द्रव्यमेव
घटे रूपम् अस्ति चेत् घटः समवायिकारणं तद्वत् द्वित्वस्यापि घटः वा पटः वा समवायिकारणम् असमवायिकारणं किमस्ति द्वित्वं प्रति
एकत्वं
पटे अथवा घटे एकत्वम् अस्ति चेत् तादृशगुणेन एव इतोपि एकः पटः अथवा घटः आनीयते चेत् तत्र द्वित्वं जायते खलु समवायिकारणे स्थितः कश्चन गुणः अथवा काचित् क्रिया असमवायिकारणम् इति उच्यते चेत् तत्र एकत्वम् असमवायिकारणं तर्हि द्वित्वं प्रति निमित्तकारणं किम्
तत्र एकत्वम् अस्ति इति तत्र बुद्धिः ज्ञानविशेषः तत्र तस्मात् कारणात् अन्यस्य घटस्य आनयनेन तत्र द्वित्वं भवति इति वा तत्र
अपेक्षाबुद्धिः तादृश एव अस्ति कश्चन पारिभाषकशब्दः तर्हि गणनां यदा कुर्मः एकं घटः अपरः अपि घटः तृतीयः अपि घटः इति यदा गणनां कुर्मः तदा कश्चन अपेक्षाबुद्धिः जायते खलु तदेव निमित्तकारणं भवति
तर्हि तत्र तादृशबुद्धिनाशेन अपि द्वित्वसङ्ख्यानाशं भवति इत्युक्ते तत्र न केवलं समवायिकारणनाशात् असमवायिकारणनाशात् परन्तु तत्र निमित्तकारणनाशात् अपि तत्र गुणनाशः भवति
अत्र निमित्तकारणम् इत्युक्ते तत्र अपेक्षाबुद्धिः न अस्ति वा
इत्युक्ते यदा तादृश निमित्तकारणम् इति यत् कारणं समवायिकारणं नास्ति असमवायिकारणं नास्ति तदेव निमित्तकारणं खलु. अस्मिन् परिच्छेदे तु केवलं समवायिकारणनाशेन गुणनाशः अपि च निमित्तकारणनाशेन गुणनाशितः. निमित्तकारणम् इति अपेक्षा बुद्धिः अस्ति गोपालमहोदय. यदि सा बुद्धिः एव नश्यति तर्हि द्वित्वादिसङ्ख्याः न जायन्ते इति वदति. मम पुरतः पञ्चघटाः स्युः किन्तु अहं यावत्पर्यन्तम् अयं घटः अयं घटः अयं घटः इति तादृशज्ञानं न जायते मयि तावत्पर्यन्तं सङ्ख्या अपि न जायते खलु. तर्हि अपेक्षाबुद्धिः निमित्तकारणं, तादृश अपेक्षाबुद्धेः नाशादपि
अपेक्षाबुद्धिः इति ज्ञानमपि नास्ति
इति. हा सत्यं, बुद्धिः इत्युक्ते ज्ञानम् अस्तु. अपेक्षा बुद्धिः इति ज्ञानविशेषः, विशेषरूप विशिष्टज्ञानमस्ति. तद् ज्ञानमेव नश्यति चेत्, यदि यः कोऽपि गणनामेव न कर्तुम् इच्छति चेत् तादृशसन्दर्भः, तदा द्वित्वादिसङ्ख्यानां नाशः इति
नाशः अस्ति.
यतः तत्र एकत्वादिव्यवहारः सङ्ख्या इति लक्षणकारणमस्ति किल, एकाद्वादिरूपसङ्ख्या तत्र अयम् एकः घटः इमौ द्वौ घटौ इति शब्दप्रयोगेनैव तत्र एकत्वादि रूपसङ्ख्या सङ्ख्याः विद्यन्ते तत्र अस्माभिः
सङ्ख्या इति गुणात् कश्चन प्रयोगः जायते.
तर्हि तत्र ज्ञानविशेषः अपेक्षा बुद्धिः इति
सः ज्ञानविशेषः भिन्नः इति चिन्तयामि महोदय.
एवं वा?
हा, एकत्वादिसङ्ख्यातः क्षम्यतां सङ्ख्यातः एकः घटः इति जायते खलु इति सत्यं, परन्तु तदपि
एकः घटः अस्ति चेदेव तत्र घटद्वित्वम् इति तत्र वयं यदा वयं वदामः तत्र तादृश अपेक्षा बुद्धिः तथा एव उत्पन्नं भवति किल, तत्र उत्पन्नः भवति किल तत्र
इति कृत्वा किम् इति कृत्वा एकत्वं द्वित्वं प्रति असमवायिकारणम् इति मन्यते. परन्तु भवतः विवक्षा का, सङ्ख्या एव एक अपेक्षा बुद्धिः इति वा?
तत्र तत् निमित्तकारणं तत्र अपेक्षा बुद्धिः तत्र केवलं तत्र अन्यस्य बोधनार्थमेव तत्र यदा बुद्धिः उपेक्षते तत्र उत्पादितं भवति द्वित्वादिसङ्ख्यां प्रति, तदर्थं तद् निमित्तकारणम् इति तत्र वदन्ति वैशेषिकाः इति.
अत्र अपेक्षाबुद्धिः इति अपरेषां ज्ञानजननार्थम् इति न भाति. स्वस्मिन् अपि द्वित्वादिसङ्ख्यस्य ज्ञानजननार्थं तादृशी अपेक्षाबुद्धिः स्यात् इति वार्ता. अस्तु अस्तु, तर्हि अत्र समवायिकारणम् अपि च निमित्तकारणनाशात् गुणनाशः इति उदाहरणमस्ति. अन्ततो गत्वा परिशिष्टे असमवायिकारणनाशादपि गुणनाशः इति अस्ति, दिक्पिण्डसंयोगनाशात् परत्वनाशः इति. तर्हि करपत्रमस्ति, प्रेषयिष्यामि. परन्तु गुणनाशः केन केन भवति इत्यस्य उदाहरणमस्ति. अधुना समवायिकारणनाशेन निमित्तकारणनाशेन गुणनाशः इति दृष्टं. पुनः गुणनाशः कस्मात् भवति इति अग्रिमपरिच्छेदः अस्ति. राजेन्द्रमहोदय पठति वा?
आं भगिनि, पठामि. समान अधिकरणगुणेनापि भवति गुणनाशः. यथा घटे तेजः संयोगेन श्यामादिरूपनाशः, पृथ्व्यां द्रवत्वनाशो अपि तेजसंयोगादेवः संयोगादेव आत्मगुणः संस्कारः कालात् रोगात् चर्मेण स्मरणेन वा नश्यति. चिरं यः पदार्थः न अस्माभिः स्मृतः तस्य कालानन्तरेण स्मृतं प्रयासे क्रियमाणे अपि न सः स्मर्यते. कुतः? कालवशात् नष्टः संस्कारः. वार्धक्यादीनां रोगाक्रान्ते शरीरे न स्मृति अनुभूतं विषयितं, तत् कुतः? रोगेण नष्टः संस्कारः. समान अधिकरण गुणेन अपि भवति गुणनाशः यथा यथा समान अधिकरण करणं भवति तत्र तथापि गुणनाशः भवति यथा यथा वयम् उदाहरणत्वेन संयोगनाशः विभागसंयोगनाशः यदा समान अधिकरणं भवति तत् गुणनाशः भवति.
महोदय एतावत् पर्यन्तं तद् न उक्तम्. अस्तु, तद् साधनीयमस्ति अस्माभिः, विभागः संयोगनाशः समानाधिकरणौ इति. परन्तु वेङ्कटेशमहोदयेन यदुक्तं तदस्ति गुणनाशः समवायिकारणेन निमित्तकारणेन भवति इति. भवता यत् प्रतिपाद्यते अधुना समानाधिकरणगुणेनापि कथं भवति गुणनाशः इति.
अस्तु,
अत्र उदाहरणं किम् इति परिशीलयतु.
अस्तु, किञ्चित् संस्कारः आसीत् पूर्वतन तथा उक्तवान्.
यतोहि हा अधुना वयं जानीमः खलु विभागः संयोगनाशं करोति इति, तदर्थं प्रायः कन्क्लूषन् आगतम् इति
चिन्तयामि. यथा घटे तेजः संयोगेन शामादिरूपनाशः, यथा घटेन सह यदा तेजसंयोगः जायते तथा घटस्य शामरूपनाशः भवति. तत् पृथ्व्यां द्रवत्वनाशो अपि तेजः संयोगादेव, पृथ्व्याम् अपि तथैव यत् तेजसंयोगः संयोगः भवति तत् द्रवत्वनाशः भवति तथा पृथ्व्यामपि. आत्मगुणः संस्कारः कालात्, आत्मगुणः यः संस्कारः अस्ति, आत्मनि यः गुणः अस्ति संस्कारः कालात् रोगात् चर्मेण स्मरणेन वा नश्यति. कालेन अथवा रोगेण अथवा चर्मेण यः स्मरणं न जातं तेन अपि गुणनाशः जनयति, गुणनाशः भवति.
स्थिरं
यः पदार्थः न अस्माभिः स्मृतः, यत्किमपि कोऽपि पदार्थः अस्ति अस्माभिः न स्मृतः, तत् कालानन्तरेण किञ्चित् कालानन्तरं तस्य स्मर्तुं प्रयत्नं कुर्मः, तत् न स्मर्यामः, तत् तदपि चिरकालं यथा यत्किमपि न अस्माभिः कालान्तरेण यस्य प्रयोजनं न कुर्मः तत् संस्कारः कालेन जायते विस्मृति जायते. कालवशात् नष्टः संस्कारः, कालवशात् सः संस्कारः यः अस्माभिः न स्मृतं स्मृतव्यं तत् तस्य नष्टः जातः संस्कारस्य. वार्धक्यादीनां रोगाक्रान्ते शरीरे न स्मृते अनुभूतं विषयं, शरीरे यः विषयं पूर्वम् अनुभूतम् आसीत् तत् वार्धक्येन अथवा रोगेण तत् न स्मरामः, तत् नष्टं जातं. ततः कुतः रोगेण नष्टः संस्कारः, तत् रोगेण सह संस्कारः नष्टः जातः.
अस्तु, तर्हि आहत्य अधुना वदतु गुणनाशः केन केन कारणेन भवति?
गुणनाशः तु तेजसंयोगेन भवति, तत्र तथा यत् संस्कारः चिरकालतः न स्मरामः तत् तेन भवति, रोगेण भवति, कालात् कालेन भवति.
एतत् सर्वं सत्यमेव यद् भवता उक्तं. तर्हि आहत्य वेङ्कटेशमहोदयेन यद् पठितं, भवता यद् पठितं, सर्वं मिलित्वा गुणनाशः केन केन कारणेन भवति इति वदतु.
निमित्तकारणनाशेन गुणनाशः भवति,
अपि च समवायिकारणनाशेन अपि गुणनाशः भवति खलु.
समवायिकारणनाशेन अपि गुणनाशः भवति.
यतोहि घटः नष्टः चेत् घटे
विद्यमानं भवति.
तत् अस्तु, तत् कीदृशगुणनाशः?
तत्तु समवायिकारणनाशः.
अत्र पठतु, समानाधिकरणगुणेन भवति गुणनाशः इति उक्तं खलु? सः समानाधिकरणगुणः असमवायिकारणम् अस्ति न वा, अथवा निमित्तकारणम् अस्ति न वा, अथवा समवायिकारणम् अस्ति न वा इति न वार्ता. केवलं समानाधिकरणगुणः
समानाधिकरणेन गुणनाशः भवति, यथा घटे तेजसंयोगेन घटतेजसंयोगेन रूपनाशः भवति.
अस्तु, समीचीनं. तर्हि हा, तर्हि अत्र तेजसंयोगेन श्यामादिरूपनाशः इत्यत्र समानादिकरणौ गुणौ कौ?
समान तेजसंयोगः घटतेजसंयोगः, घटरूपः तेजसंयोगः.
हा, इति समानादिकरणगुणौ खलु? तदर्थमेव उक्तं समानाधिकरणगुणेन अपि भवति गुणनाशः. इत्युक्ते तेजसंयोगः इति एकः गुणः तस्मिन्नेव घटे अस्ति, यस्मिन् घटे श्यामरूपः अपि अस्ति खलु. हा, इति कृत्वा तेजसंयोगेन श्यामादिरूपनाशः. पृथिव्यां द्रवत्वम् इति गुणः अस्ति. पुनः द्रवत्वमपि नश्यति खलु तेजसंयोगेन. इति तृतीयविधगुणनाशः. प्रथमम् अत्र दृष्टमासीत् यत् समवायिकारणनाशात् गुणनाशः, असमवायिकारणनाशात् क्षम्यतां निमित्तकारणनाशात् गुणनाशः, अपि च समानादिकरणगुणेन गुणनाशः इति तृतीयविधम् अस्ति, तृतीयविधः गुणनाशः. चतुर्थः कः? आत्मगुणः संस्कारः केन केन नश्यति?
संस्कारेण.
आत्मस्य गुणः संस्कारः इति अस्ति खलु, सः गुणः केन केन नश्यति? कालात्, रोगात्,
रोगेण, कालेन, रोगेण, चर्मसम्रेण नश्यति.
इति चतुर्विधः गुणनाशः. बुद्धं वा?
आम् आं भगिनि.
हा, एषु चतुर्षु अस्माकं संयोगनाशकः विभागः कुत्र भवति इति परिशीलनीयम् इति वार्ता अस्ति. अस्तु, अग्रे सरेम वा इतः? अजितमहोदय अग्रे पठति वा?
आं भगिनि. नमस्ते.
आमामां, पठतु महोदय.
चर्मस्मरणेनापि ततः आरभ्य वा अथवा
ततः आरभ्य? आम्.
अस्तु, चरमस्मरणेनापि नश्यति संस्कारः. अजिज्ञासादपि अर्थः इन्द्रियसन्निकर्षादीना अस्माभिः ज्ञातः इति मन्यताम्. तेन संस्कारः उत्पन्नः. संस्कारेण एकवारं द्विवारं वा स्मरणमपि तस्य पदार्थस्य जातम्. परन्तु अनपेक्षितत्वात् सः पदार्थः न पुनः कदापि स्मृतः. किं तथा सति संस्कारः आत्मनि तथैव तिष्ठेत् न प्रयोगजनाभावात् प्रयोजनाभावात्. स्मरणाय खलु संस्कारः. यदि न सः विषयः पुनः स्मृतः, कः लाभः? तदात्मनि सः संस्कारः तथैव तिष्ठति इति कल्पनया. अतः द्वितीयवारं यत् स्मरणमभूत् तेन चरमेण स्मरणेन सः संस्कारः नष्टः इति चिन्तनम् उचितम्. अस्तु, अत्र संस्कारस्य नाशः कदा भवति इति चिन्तयति. चरमेण स्मरणेन संस्कारः नश्यति. कुतः इत्युक्ते
अत्र चरमस्मरणम् इत्युक्ते किम्? चरमम् इत्युक्ते किम्?
चरमस्मरणम् चरमम् इत्युक्ते मरणम्.
चरम इत्युक्ते अन्तिम
खलु
चरम इत्युक्ते अन्तिमः हा अन्तिमस्मरणेन संस्कारः नश्यति आत्मनि कश्चन गुणः अस्ति खलु संस्कारः इति गुणः मनसि भवेत् अस्तु संस्कारः आत्मनि अस्ति अपि च संस्कारः स्मरणं जनयति भावनाख्यसंस्कारः इति आत्मनि यः संस्कारः अस्ति सः संस्कारः स्मरणस्य व्यापारः अस्ति स्मरणं जनयति संस्कारः तर्हि सः संस्कारः कालात् रोगात् नश्यति इति अवगन्तुं शक्नुमः सुलभतया अधुना चरमेण स्मरणेनापि सः संस्कारः नश्यति इति तैः उक्तं चरमेण स्मरणेन इत्युक्ते अन्तिमस्मरणेन कस्यचित् वस्तुनः अन्तिमवारं स्मरणं यदा भवति तदनन्तरं तस्य पुनः पुनः स्मरणं न भवति चेत् तदेव चरमस्मरणं खलु तर्हि तेन स्मरणेन
तत्रापि
हा वदतु
संस्कारः नश्यति तत्रापि समानाधिकरण गुणः एव कारणात् खलु चरमस्मरणम् इत्युक्ते एक समानाधिक
अत्र किञ्चित् चिन्तनीयमस्ति स्मरणम् इति ज्ञानम् अस्ति वा इति स्मरणम् इति गुणः अस्ति वा
स्मरणं गुणः नास्ति
इत्युक्ते
स्मरणम् इत्युक्ते क्रिया एव खलु
इति भवेत् किन्तु अन्ये किं चिन्तयन्ति स्मरणम् आत्मनि विद्यमानः गुणः भवितुम् अर्हति वा स्मरणात्मकं ज्ञानम् इति वदन्ति चेत्
गुणः भवितुम् अर्हति गुणः स्मरणम् इति आत्मनि विद्यमानगुणः
प्रायः तस्य विषये काचित् चर्चा भवतु कदाचित् किन्तु आं स्यात् महोदय
अन्यप्रश्नः अस्ति चरम कालात् तयोः भेदः कः मम चिन्तनमस्ति चरमः अपि काल तदपि एवं चिन्तयितुं शक्यते
अस्तु अस्य परिच्छेदस्य किञ्चित् विवरणं दास्यामि अहमेव तदा प्रायः स्पष्टः स्यात् विद्याशङ्करमहोदय किम् उक्तवान् भवान्
क्रिया भवितुम् अर्हति वा स्मरणं क्रिया न गुणः किन्तु
क्रिया तु भवति अहं स्मरामि इति क्रिया भवति चेत् तत्र स्मरणम् इति यद् जायते क्रियायाः फलरूपेण तत् स्मरणं कुत्र भवति आत्मनि भवति चेत् आत्मनः ज्ञानम् अस्ति वा इत्यस्य प्रायः अजितमहोदय तादृश अजितमहोदयस्य कथनं तादृशमासीत् इति मन्ये न जानीमः किन्तु हा किञ्चित् वदामि अत्र चरमस्मरणेनापि नश्यति संस्कारः इति उक्तमस्ति खलु तर्हि कश्चन अजिज्ञासितः पदार्थः इन्द्रियसन्निकर्षेण ज्ञातः भवति इत्युक्ते वयं किमपि ज्ञातुं न इच्छामः मार्गे चलामः एवमेव कस्यचित् मनुष्यस्य अथवा कस्यचित् वृक्षस्य दर्शनं भवति चेत् तस्य दर्शनेन आत्मनि संस्कारः भवति अस्तु संस्कारेण कदाचित् एकवारं वा द्विवारं वा सः पदार्थः अजिज्ञासितः स्मरणे आगच्छति स्मृतिपथे आगच्छति इति चिन्तयतु परन्तु सः विचारः अनपेक्षितः इत्युक्ते अस्माभिः न इष्यते वयम् अपेक्षां कृत्वा न ज्ञातवन्तः एवमेव ज्ञातवन्तः एवमेव संस्कारः जातः खलु तर्हि यावत्पर्यन्तं पुनः सः वस्तु अस्माकं पुरतः न आगच्छति तावत्पर्यन्तं प्रायः तस्य स्मरणं न जायेत एवमेव एकवारं वा द्विवारं वा तस्य स्मरणम् अभूत् इति चिन्तयतु अथवा पुनः एकवारम् उद्बोधकरूपेण पुनः पुरतः आगच्छति चेत् वृक्षः तदा संस्कारः उद्बुद्धः भवति पुनः स्मरणं जायते इति चिन्तयतु तदनन्तरं गच्छता कालेन उद्बोधकस्यापि अभावेन तस्य स्मरणं पुनः जायते पुनः न जायते इति चिन्तयामश्चेत् तदा तस्य अर्थः कः संस्कारः नष्टः इति यतोहि संस्कारस्य उपयोगं किम् आत्मनि संस्कारः स्मरणजननार्थमेव अस्ति, तदेव संस्कारस्य प्रयोजनं। तर्हि पुनः पुनः स्मरणमेव न जायते चेत् तर्हि संस्कारः अपि नष्टः इति अवगन्तुं शक्नुमः। अपि च तस्य संस्कारनाशस्य कारणमस्ति चरमस्मरणम् इति वदन्ति। भवता यत् पृष्टं कालात् चरमस्मरण, कालात् अपि च चरमेण स्मरणेन इति समानार्थकम् अस्ति वा इति, तर्हि हा कालेन, कालः इति साधारणकारणमस्ति खलु महोदय, सर्वेषां प्रति कार्यसामान्यं प्रति कारणं कालः खलु, हा सर्वेषां प्रति कालः कारणं, तथा संस्कारनाशं प्रति अपि कालः कारणम् इति वक्तुं शक्यते। परन्तु विशेषरूपेण चरमस्मरणेन संस्कारः नष्टः इति स्वीक्रियते तैः।
एतादृशज्ञानं सर्वेषां जनानां न उत्पद्यते, केवलं के 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 पश्यन्ति वृक्षः, वृक्षं पश्यन्ति तेषां मनसि एव एतादृश संस्कारः उत्पद्यते इति।
इत्युक्ते वृक्षं पश्यति इति चिन्तयतु, एवमेव पश्यति भवान् वृक्षं, तदा आत्मनि संस्कारः भवति, वृक्षस्य संस्कारः भवति दर्शनात्।
अनपेक्षिता,
सत्यम्, अनपेक्षितः खलु। इदानीं परीक्षार्थं वयं पठामश्चेत् अपेक्षितत्वेन पुस्तकं पश्यामः खलु, वारं वारं पुस्तकं पश्यामः स्मरणे भवति, अजिज्ञासितः वृक्षः सः एकवारम् एवमेव नेत्रयोः पुरतः आगच्छति चेत् तस्य संस्कारः जायते, पुनः एकवारं वा द्विवारं वा यदा बहिः गच्छति वृक्षं पश्यति चेत् वृक्षः तदा उद्बोधकः भवति, संस्कारः उद्बुद्धः भवति तस्य दर्शनेन, पुनः स्मरणं जायते इति सत्यं। परन्तु गच्छता कालेन वृक्षं न पश्यति चेत् कालान्तरे पुनः स्मरणं, पुनः सत्यं, पुनः स्मरणं न जायते, पुनः स्मरणं किमर्थं न जायते, यतोहि तस्य संस्कारः आत्मनि नास्ति इति अवगन्तुं शक्यते। अतः एव चरमेण स्मरणेन संस्कारः नाशः इति वदन्ति। अस्तु अस्तु, इतः अग्रे सरेम सरेम, किञ्चित् एव अवशिष्टः अस्ति अस्मिन् भागे। अजितमहोदय तर्हि पठतु अग्रिम पङ्क्तिद्वयं संक्षेपतश्च।
अस्तु, संक्षेपतश्च गुणनाशः समवायिकारणनाशात् निमित्तकारणनाशात् समानाधिकरणगुणान्तरेण कालेन रोगेण चरमस्मरणेन वा भवतीति आगतम्। विभागसाधनाय खलु अस्माभिः प्रवृत्तं, कः लाभः अस्य विकरणस्य? वक्ष्यमाणानुमाने विभागसाधके विवरणसौकर्यं भविष्यति, किमनुमानम् उच्यते अनन्तरम्?
हा, इति एतावत्पर्यन्तं बुद्धं खलु, अनन्तरं
प्रथमपङ्क्ति तत्र गुणनाशस्य कारणं पुनरेकवारं वदति, समवायिकारणनाशात् निमित्तकारणनाशात् समानाधिगुणान्तरेण कालेन रोगेण चरमस्वरेण गुणनाशः भविष्यति इति।
इति बुद्धं स्यात् समानाधिकरणगुण। द्वितीयपङ्क्ति किं वदति?
इति बुद्धं, विभागसाधनाय खलु अस्माभिः प्रवृत्तं खलु, तत् किञ्चित् तत्र न सम्यक् अवगतं।
तर्हि यद्यपि वयम् एतावत्पर्यन्तं गुणनाशः कथं भवति इति परिशीलितवन्तः, तथापि अयं विभागः, अयं भागः कः? संयोगनाशात् विभागः न अतिरिक्तः इत्यस्य आक्षेपस्य निवारणं खलु। पूर्वस्मिन् पुटे पश्यतु, संयोगनाशको गुणो विभागः इति अस्माभिः साधनीयमस्ति, ततः आरभ्य एषा चर्चा जाता। गुणनाशः कथं कथं भवति इति, यतोहि संयोगः इति गुणः, तस्य नाशः कथं सिध्यति इति चर्चा इति अस्माकं मूलविषयः अस्ति. तदर्थमेव विभागसाधनाय खलु अस्माभिः प्रवृत्तं. कः लाभः अस्य विवरणस्य? एतावत् पर्यन्तं यत्किमपि विवरणं जातं तस्य कः लाभः इति चेत्, वक्ष्यमान अनुमाने विभागसाधके विवरणसौकर्यं भविष्यति. इत्युक्ते अग्रे अग्रिमपुटे एकम् अनुमानवाक्यम् उच्यते, तस्मिन् अनुमानवाक्ये समानादिकरणगुणजन्यत्वम् इति किमपि अस्ति. तदर्थम् अस्माभिः अवगन्तव्यमस्ति यत् समानादिकरणगुणेन अपि गुणनाशः भवति इति. तत्र उदाहरणं किम् आसीत् समानादिकरणगुणेन गुणनाशः इति?
तत्र रोगेण
गोपाल् महोदय
चरमेण,
हा तत्तु संस्कारनाशः समानादिकरणगुणेन इति न, कालात् न जातः खलु. गोपाल् महोदय,
तेजसंयोगः घटे विद्यमानः तेजसंयोगेन गुणरूपं नश्यति तत्र समानादिकरणं.
सत्यं समानादिकरणगुणेन नाशः इति सः अस्ति उदाहरणमस्ति तदेव. अस्तु गोपालमहोदय अग्रे भवान् एव पठतु अग्रिमपरिच्छेदम्.
आश्रयनाशाजन्यगुणनाशः समानादिकरणगुणजन्यः. आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत्. दृष्टान्ते तादृशः समानादिकरणः गुणः तेजः संयोगः, तथा च क्रिया ततः विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोगः ततः क्रियानाशः इति वैशेषिकप्रक्रियायां विभागकल्पनं समर्थितं भवति. आश्रयनाशाजन्यः तत्र संयोगनाशः इति. तदर्थं समानादिकरणगुणान्तरम् आवश्यकं, समानादिकरणगुणान्तरम् आवश्यकं. स गुण एव विभाग इति विशेषकोटिक्रमः परिशिष्टात् अवगन्त विशेषकोटिक्रमः परिशिष्टात् अवगन्तव्यः. तत्र आश्रयनाशाजन्यगुणनाशः तत्र आश्रयत्वं समानादिकरणगुणजन्यः.
तर्हि पूर्वस्मिन् पुटे एकम् अनुमानम् उच्यते इति उक्तं खलु.
आम्,
अनुमानवाक्यं किम् अस्ति इति चेत् अयमेव इदमेव प्रथमवाक्यम्
आश्रयनाश, तदेव अनुमानवाक्यम्. आश्रयनाशाजन्यगुणनाशः समानादिकरणगुणजन्यः. तत्र तेज घटते
पूर्णतया वाक्यं पठतु तदा स्पष्टं भवति.
आश्रयनाशाजन्यगुणनाशः समानादिकरणगुणजन्यः. आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् तत्र तद् अनुमानवाक्यं. तत्र दृष्टान्ते कथं विवरणमस्ति पूर्वमेव दृष्टवन्तः. तत्र समानादिकरणः गुणः तेजसंयोगः घटे अस्ति इति पूर्वं दृष्टम्.
समीचीनं. तर्हि
तत्र च क्रिया,
तद् त्यजतु इदानीं तेजसंयोगः इति चर्चयामः. अस्तु, एतस्मिन् अनुमानवाक्ये पक्षः, हेतुः, साध्यः अपि च दृष्टान्तः विद्यते. एकं वाक्यं वदामि, शृण्वन्तु. पर्वतः वह्निमान् धूमात् यथा महानसम् इति अनुमानवाक्यम्. अत्र पर्वतः इति पक्षः, यत्र किमपि साधयितुम् इच्छामः सः पक्षः. पक्षे किं साधयितुम् इच्छामः? वह्निमान्, वह्निः अस्ति इति साधयितुम् इच्छामः खलु. तर्हि वह्निः इति साध्यः, पक्षः वह्निमान् किमर्थं? धूमात्.
तर्हि
धूमः हेतुः. एतत् सर्वम् उक्त्वा एकं दृष्टान्तः अपि दीयते. दृष्टान्तः अस्ति यथा महानसम्. महानसम् इत्युक्ते पाकशाला. पाकशालायां कोऽपि पश्यति तत्र वह्निः अपि अस्ति, धूमः अपि अस्ति. तर्हि सः जानाति यद् अस्तु, वह्निधूमयोः सहचारः तत्र विद्यते इति. तद्वदेव कमपि पर्वतं पश्यति चेत् पर्वतात् धूमः आगच्छति चेत् तदा अनुमानं कर्तुं शक्नोति पर्वतः वह्निमान् इति सर्वम् अत्रापि अन्तर्भूतम् अस्ति. आश्रयन् आश्रयनाशाजन्यगुणनाशः इति पक्षः अस्तु. आश्रयनाशाजन्यगुणनाशे समानाधिकरणगुणजन्यत्वम् अस्ति इति साधनीयम्. अतः समानाधिकरणगुणजन्यः साध्यः. पुनः हेतुः अस्ति आश्रयनाशाजन्यगुणनाशत्वात्. दृष्टान्तः पाकजरूपनाशवत् खलु.
तेजसेन तेजसा रूपनाशं भवति पाकजरूपनाशवत् इति
सत्यं. रूपनाशः भवति पाकजः इत्युक्ते तेजसंयोगः. तेन रूपनाशः भवति. परन्तु रूपस्य आश्रयः नश्यति वा?
न
नश्यति खलु. इत्युक्ते इति प्रथमपदमस्ति. प्रथमपदं पठतु पुनः. आश्रय
तत्र आश्रयनाशजन्य तत्र आश्रयनाशाजन्यगुणनाशनाशाजन्यगुणनाशत्वात्
बहु समीचीनम् इत्येव वार्ता. आश्रयनाशेन अजन्यगुणनाशः इत्युक्ते आश्रयस्य नाशः न जातः. यः कोऽपि आश्रयः अस्ति गुणस्य सः नाशः न जातः इति कृत्वा आश्रयनाशाजन्यगुणनाशः केन जायते?
समानाधिकरणगुणजन्यः
तत् कथं ज्ञातुं शक्नुमः? आश्रयनाशाजन्यगुणनाशत्वात् हेतुः अस्ति. नाम तस्मिन् वयं पश्यामः यत् आश्रयनाशाजन्यगुणनाशत्वम् अस्ति तस्मिन् पक्षे. इत्युक्ते आश्रयस्य नाशः न जातः परन्तु किमपि जायते. सत्यम्. इति सर्वं परिशील्य पाकजरूपनाशवत् अत्रापि परिस्थितिः इति ज्ञातुं शक्नुमः. अस्तु. इति अस्ति दृष्टान्ते तादृशसमानाधिकरणगुणः तेजसंयोगः पाकजरूपनाशवत् इति तत्र दृष्टान्ते. अस्माकं वस्तुस्थितिः का इति अग्रे अस्ति. तथा च
क्रिया तथा च क्रिया ततः विभागः ततः पूर्वदेशसंयो नाशः
महोदय न श्रूयते.
न श्रूयते वा?
इदानीं श्रूयते. पुनः पठतु.
दृष्टान्ते तादृशः समानाधिकरणः तथा च क्रिया ततः विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोगः ततः क्रियानाशः इति वैशेषिकप्रक्रियायां विभागकल्पनं समर्थितं भवति. तत्र पूर्वं पञ्च तत्र पूर्वम् आद्यक्षणे पञ्चमदने किं भवति इति किञ्चित् दत्तमस्ति. पूर्वम् आद्यक्षणे क्रिया भवति तदनन्तरं विभागः तदनन्तरं विभागेन पूर्वदेशसंयोगनाशः भवति तदनन्तरं उत्तरदेशसंयोगः जायते. तत्पर्यन्तं यत् क्रिया पूर्वम् अभवत् तत् तिष्ठति तदनन्तरमेव पञ्चमक्षणे एव क्रियानाशः इति विभागकल्पनं वैशेषिकानां वैशेषिकप्रक्रियायां भवति. तत्र यदा दृष्टम्
हा तर्हि एतावत् पर्यन्तं घटः इति चिन्तयतु. घटे क्रिया, घटे विभागः, घटे संयोगनाशः, घटे उत्तरदेशसंयोगः, पुनः घटस्य क्रियायाः नाशः इत्येव एतावत् हा इत्येतावत् पर्यन्तं घटस्य नाशः जातः वा?
न जातः.
न जातः इत्येव आश्रयनाशाजन्य किं गुणनाशः. कस्य गुणस्य नाशः जातः?
आश्रय समानाधिकरण ऐ मीन्
अग्रिमवाक्यं पठतु, स्पष्टं भवति.
आशयनाशाजन्यः तत्र संयोगनाशः इति, आशयनाशाजन्यः तत्र संयोगनाशः इति, तदर्थं समानाधिकरणगुणान्तरम् आवश्यकम्. तत्र समानाधिकरण तत्र एवं यथा घटे तेजसंयोगेन रूपनाशः भवति, तदेव संयोगनाशं प्रति समानाधिकरणगुणान्तरम् आवश्यकं, तत्र विभागः आवश्यकम् इति.
सत्यं सत्यं, समीचीनम् इत्येव वार्ता अस्ति अत्र. यतोहि संयोगनाशं प्रति समवायिकारणनाशः कारणं नास्ति, घटः तावत् तथा यथावदेव तिष्ठति
एव.
असमवायिकारणगुणः, असमवायिकारणं यत्किमपि भवतु, तस्यापि नाशः न जातः खलु. तर्हि आश्रयनाशाजन्यः कः इति चेत् संयोगनाशः. संयोगः इति कश्चन गुणः, आश्रयनाशाजन्यः संयोगनाशः जातः. केन जातः इत्युक्ते समानाधिकरणगुणेन एव स्यात् इति अनुमानं कुर्वन्ति ते. सः
विभागः इति विशेष कोटिक्रमः परिशिष्टात्
इत्युक्ते इतोपि गभीरतया परिशीलनार्थं परिशिष्टं पश्यतु इति. परिशिष्टे अन्यत् किमपि अस्ति अस्य विषये? जनकनाशाजन्य गुणनाशः इति. अस्तु,
कोटिक्रमः परिशिष्टात् अवगन्तव्यः. अस्यापि विभागस्य विभागजविभागः इति कश्चित् अस्ति विवादास्पदः प्रकारः, सः मुक्तावल्यादौ अवगन्तव्यः.
पुनः यथा संयोगस्यापि संयोगजसंयोगः, तद्वत् विभागस्यापि विभागजसंयोगः इति कश्चन विवादास्पदः विषयः अस्ति, सः विषयः अपि अपरत्र अवगन्तव्यः इति ते उक्त्वा विभागं साधयन्ति अनुमानमाध्यमेन. संयोगनाशको गुणो विभागः इति साधितमत्र.
संयोगनाशगुणः विभागः.
अस्तु, अत्र कोऽपि प्रश्नः वा? अत्र स्थगयामः, तदनन्तरं कृपया स्वाध्यायरूपेण करपत्राणि परिशीलयन्तु.
अस्तु
तर्हि विरमामः. धन्यवादः.
धन्यवादः.